श्री हरि शरणाष्टकम्। ध्येयं वदन्ति शिवमेव हि केचिदन्ये, शक्तिं गणेशमपरे तु दिवाकरं वै। रूपैस्तुतैरपि विभासि यतस्त्वमेव, तस्मात् त्वमेव शरणं मम दीनबन्धो।
तस्मात् त्वमेव शरणं मम दीनबन्धो।
नो सोदरो न जनको जननी न जाया, नैवात्मजो न च कुलं विपुलं बलं वा। सन्द्रेष्यते न किल कोऽपि सहायको मे, तस्मात् त्वमेव शरणं मम दीनबन्धो।
तस्मात् त्वमेव शरणं मम दीनबन्धो।
नोपासिता मदमपास्य मया महान्तः, तीर्थानि चास्ति कधिया नहि सेवितानि। देवार्चनं च विधिवन्न कृतं कदापि, तस्मात् त्वमेव शरणं मम दीनबन्धो।
तस्मात् त्वमेव शरणं मम दीनबन्धो।
दुर्वासना मम सदा परिकर्षयन्ति, चित्तं शरीरमपि रोगगणा दहन्ति। सञ्जीवनं च परहस्तगतं सदैव, तस्मात् त्वमेव शरणं मम दीनबन्धो।
तस्मात् त्वमेव शरणं मम दीनबन्धो।
पूर्वं कृतानि दुरितानि मया तु यानि, स्मृत्वाखिलानि हृदयं परिकम्पते मे। ख्याता च ते पतितपावनता तु यस्मात्, तस्मात् त्वमेव शरणं मम दीनबन्धो।
तस्मात् त्वमेव शरणं मम दीनबन्धो।
दुःखं जराजननजं विविधाश्च रोगाः, काकश्वसूकरजनिर्निरये च पातः। ते विस्मृतेह फलमिदं विततं हि लोके, तस्मात् त्वमेव शरणं मम दीनबन्धो।
तस्मात् त्वमेव शरणं मम दीनबन्धो।
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि, ब्रूयात्तवाहनमिति यस्तु किलैकवारम्। तं यच्छसीष निजलोकमिति व्रतं ते, तस्मात् त्वमेव शरणं मम दीनबन्धो।
तस्मात् त्वमेव शरणं मम दीनबन्धो।
वेदेषु धर्मवचनेषु तथागमेषु, रामायणेऽपि च पुराणकदम्बके वा, सर्वत्र सर्वविधिना गदितस्त्वमेव, तस्मात् त्वमेव शरणं मम दीनबन्धो।
तस्मात् त्वमेव शरणं मम दीनबन्धो। तस्मात् त्वमेव शरणं मम दीन बन्धो।
इति श्रीमत्परमहंसस्वामिन् ब्रह्मानन्द विरचितं श्रीहरिशरणाष्टकं सम्पूर्णम्।
तस्मात् त्वमेव शरणं मम दीन बन्धो। तस्मात् त्वमेव शरणं मम दीन बन्धो।